उत्तानपादनृपतेः मनुनन्दनस्य जाया बभूव सुरुचिः नितराम् अभीष्टा अन्या सुनीतिरिति भर्तुः अनादृता सा त्वामेव नित्यम् अगतिः शरणं गताभूत् अङ्के पितुः सुरुचिपुत्रकम् उत्तमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोधिरोक्ष्यन् आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुःसन्त्यजा खलु भवद्विमुखैः असूया त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः सगतो निजाम्बां सापि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंसा आकर्ण्यसोऽपि भवदर्चननिश्चितात्मा मानीनिरेत्य नगरात् किल पञ्चवर्षः सन्दृष्टनारदनिवेदितमन्त्रमार्गः त्वाम् आरराधतपसा मधुकाननान्ते ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ बालः त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्चमासान् तावत्तपोबलनिरुच्छ्वसिते दिगन्ते देवार्थितस्त्वम् उदयत्करुणार्द्रचेताः त्वद्रूपच्छिद्रसनिलीनमतेः पुरस्तात् आविर्बभूविथ विभो गरुडाधिरूढः त्वद्दर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते तुष्टूषमाणम् अवगम्य कपोलदेशे संस्पृष्टवानसिदरेण तथा आदरेण तावद्विबोधविमलं प्रणुवन्तमेनम् आभाषथास्त्वम् अवगम्य तदीयभावं राज्यं चिरं समनुभूय भजस्वभूयः सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् इत्युच्छुषि त्वयि गते नृपनन्दनोऽसौ आनन्दिताखिलजनो नगरीमुपेतः रे मे चिरं भवदनुग्रहपूर्णकामः ताते गते च वनम् आदृतराज्यभारः यक्षेण देवनिहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनुक्त्या शान्त्या प्रसन्नहृदयात् धनदात् उपेतात् त्वद्भक्तिमेव सुदृढाम् अवृणोन्महात्मा अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुन्धि मम आमयोगान्। ओम तत्सदिति श्रीमन्नारायणीये सप्तदशम दशकम समाप्तम। श्रीहरये नमः। रमा रमण गोविंदा गोविंदा श्रीकृष्णार्पणमस्तु।